अस्तु, तर्हि अस्माकं सन्धिवर्गे स्वरसन्धि इत्यस्य पाठः प्रचलन् अस्ति. तत्र च वयं प्रकृतिभावः इति पर्यन्तं प्राप्तवन्तः. गते वर्गे प्रकृतिभावः इति अस्माकं मुख्यविषयः आसीत्, तस्य विषये किञ्चित् चिन्तनं कृत्वा अग्रे सरेम. तर्हि प्रकृतिभावः इत्यस्मिन् द्विविधः प्रकृतिभावः अस्माभिः दृष्टः, ऋतिप्रकृतिभावः अपि च प्लुतप्रगृह्य प्रकृतिभावः इति. ऋतिप्रकृतिभावः इति प्रथमं पश्येम. तत्र बालसुब्रह्मण्यन् महोदय किञ्चित् वक्तुं शक्नोति वा तस्य विषये?
ऋतिप्रकृतिभावः इति पदान्ते अक्वर्णः ह्रस्वः न पदान्ते ह्रस्वर्णः पदान्ते अक्वर्णः अस्ति चेत् तदनन्तरं ऋतिपरे अक्वर्णः ह्रस्वः भवति.
पदान्तस्य अक्वर्णः इति एकं निमित्तं, तस्मात् परतः ऋति इत्युक्ते सत्यं ऋकारः तदनन्तरम् अस्ति चेत् तदा अक्वर्णस्य ह्रस्वादेशः भवति. तत्र सूत्रं किम् आसीत् महोदय?
सूत्रं ऋत्यकः इति सूत्रं. साकल्यस्य मतं संहिताय अधिकारे साकल्यस्य मतं.
ऋत्यकः इति सूत्रमासीत्. तत्र सूत्रे अपि ऋति इति सप्तमी विभक्तौ अस्ति इति कृत्वा तत्र पूर्वकार्यं सूचयति. कार्यं कुत्र भवति इत्युक्ते तत्र षष्ट्यन्तम् अकः इति अस्ति खलु. कार्यं तत्र अकः स्थाने ह्रस्वादेशः भवति अकः इति सूत्रं वदति ऋत्यकः इत्येव ऋतिप्रकृतिभावः इति. अपि च सूत्रे शाकल्यस्य मतेन इति उक्तम् इत्युक्ते यत्र कुत्रापि मतेन इति उच्यते तत्र वैकल्पिककार्यम् इति भवति.
शाकल्यवैयाकरणस्य मतमेव.
हा, मतेन इति
विकल्पेन.
अस्तु, इति ऋतिपरे प्रकृतिभावः इति दृष्टवन्तः. तत्र उदाहरणानि अपि अस्माभिः दृष्टानि आसन्. इतोपि एकं सूत्रम् अस्ति करपत्रे महोदय, तस्य उदाहरणं पुस्तके नास्ति. सूत्रम् एकवारं पठति वा?
भगिनि, एकः प्रश्नः अत्र अत्र मतेन वर्ड् न दृष्टति कथ. शाकलस्य
भगिनि, सूत्रे सूत्रस्य व्याख्यायाम् अस्ति मतेन इति, पश्यति वा?
हा हा हा, इको वर्णे. अस्तु
पुष्पा भगिनी, अन्ये के सन्ति? केनचित् आगतं खलु?
सुमित्रा अस्मि.
सुमित्रा भगिनी, अनन्तरं
अभिनव.
अभिनव महोदय, अस्तु. तर्हि ऋत्यकः इति एकं सूत्रमासीत् तत्र. अपि च इको सवर्णे शाकल्यस्य ह्रस्वश्च इति. महोदय किञ्चित् वदति वा?
अपि च अत्रापि पदान्त इक्वर्णस्य पूर्वमस्ति चेत् तदनन्तरं असवर्णे अचि परे अस्ति चेत् साकल्यसमतेन ह्रस्वः भवति. इक्वर्ण पूर्व ह्रस्वः आदेशः भवति.
तत्रापि ह्रस्वादेशेन प्रकृतिभावः भवति विकल्पेन.
विकल्पेन
सत्यं. तर्हि इको सवर्णे शाकल्यस्य ह्रस्वश्च इत्यत्र इक् वर्णस्य ह्रस्वादेशो भवति असवर्णे अचीपरे इति उक्तं. तर्हि यण् सन्धि बाधितः भवति अनेन. ऋत्यकः इत्यनेन ह्रस्वादेशः यदा भवति तस्य बलेन यः कोऽपि सन्धिः भवितुमर्हति तत्र सः सन्धिः बाधितः भवति. उदाहरणानि वयं दृष्टवन्तः तत्र गुणसन्धिः बाधितः भवति अथवा यण् सन्धिः अपि बाधितः भवति सवर्णदीर्घसन्धिः अपि बाधितः भवति. अस्तु इतः अग्रे यत्र प्लुतप्रगृह्यवर्णाः भवन्ति तत्रापि प्रकृतिभावः भवति इति वयं दृष्टवन्तः. राजेन्द्रमहोदय तस्य विषये किञ्चित् वदति वा तत्र सूत्रं किम् आसीत् इति.
पलुत् प्रगृह्य अति नित्यं पलुत् वर्णाः प्रगृह्यवर्णाः च प्रकृतिभावे नित्यं तिष्ठन्ति अचि परे. यथा पलुत् वर्णः अस्ति तत् सा तु नित्यं तथैव तिष्ठति प्रकृतिभावे. उदाहरणत्वेन आगच्छ कृष्ण तत्र तत् कृष्ण तत्र पलुत् वर्णः अस्ति तत् अनन्तरम् अच् वर्णः अत्र गोश्चरति आगच्छति परन्तु तत् प्रकृतिभावः एव भवति. आगच्छ कृष्ण अत्र गोश्चरति अत्र तत् सन्धिः न भवति तत्र.
अत्र वैकल्पिकः अस्ति
न भगिनि नित्यम् अस्ति
नित्यमस्ति
वैकल्पिकः नास्ति.
अत्र कृष्ण आगच्छतु तत्तु तत् प्रकृतिभावः अस्ति न
कृष्ण आगच्छ कृष्ण इति प्लुतवर्णः अस्ति भगिनि. कृष्ण इति प्लुतवर्णः अस्ति तस्मात् परे अत्र इति अस्ति खलु तेन सह सन्धिः न भवति इति कृत्वा प्रकृतिभावः तिष्ठति इति.
कोऽपि स्वरः अस्ति नागच्छति न प्रकृतिभावः आगच्छति कोऽपि स्वरः अस्ति
कोऽपि स्वरः
आकार कोऽपि
आम् इति वार्ता अस्ति. अस्तु प्रगृह्य प्रकृतिभावः इत्यत्र अस्माभिः प्रगृह्यवर्णाः के इति दृष्टमासीत् अथवा प्रथमविधप्रगृह्यवर्णः कः इति दृष्टमासीत्. तत्र च सूत्रमासीत् ईदूदे द्विवचनं प्रगृह्यम् इति सूत्रमासीत् ईदूदे द्विवचनं प्रगृह्यं. तर्हि राजेन्द्रमहोदय तस्य विषये किञ्चित् वदति वा.
आं भगिनि यथा इकारान्त अथवा उकारान्त अथवा एकारान्तः अनन्तरं द्विवचन शब्दाः ये सन्ति तत्र प्रगृहसंज्ञा भवति. तत् संज्ञासूत्रमस्ति तत् के वर्णाः प्रगृहसंज्ञक प्राप्नुवन्ति तत्र इकारान्तः उकारान्तः एकारान्तः द्विवचनात् शब्दाः ये सन्ति ते प्रगृहसंज्ञकाः प्राप्नुवन्ति.
हा प्रगृह्यसंज्ञकवर्णाः सन्ति ईकारान्त ऊकारान्त एकारान्त च द्विवचनान्तशब्दाः तथा प्रगृह्यसंज्ञां प्राप्नोति इति ईदूदे द्विवचनं प्रगृह्यम्. अतः यत्र प्रगृह्यसंज्ञा भवति तत्रापि नित्यत्वेन प्रकृतिभावः प्लुतप्रगृह्याः अचि नित्यम् इति सूत्रं तदेव वदति नित्यं भवति प्रकृति नित्यः प्रकृतिभावः तत्र इति. ईकारान्तः ऊकारान्तः एकारान्तः द्विवचनम् इत्युक्ते तत्र उदाहरणानि परिशीलितानि आसन् अस्माभिः अनादियोगः उभौ इति. तर्हि ईकारान्तद्विवचनम् इत्युक्ते मुनिशब्दस्य द्विवचन इति मुनि इति अस्ति खलु तादृशमस्ति. ऊकारान्तद्विवचनम् इत्युक्ते गुरुशब्दस्य द्विवचन गुरुशब्दस्य प्रथमाविभक्त्यां द्विवचनमस्ति गुरु इति तादृशम्. एकारान्तद्विवचनम् इत्युक्ते नपुंसकलिङ्गशब्दानां द्विवचने प्रथमाविभक्त्यां यथा वने फले अथवा स्त्रीलिङ्गशब्दाः शब्दः भवति चेत् लता लते इति द्विवचनमस्ति खलु तादृशं तत्र प्रकृतिभावः नित्यः इति उच्यते. तदनन्तरं प्रगृह्यम् इत्युक्ते किम् इति दृष्टवन्तः. प्लुतसंज्ञा कुत्र भवति इत्यर्थम् एकं सूत्रमस्ति दूराधूते च इति. तत् सूत्रं पुनः एकवारं परिशीलयिष्यामः. विद्या भगिनी सूत्रं पठति वा?
हा भगिनि. दूरात् धूते च. दूरात् सम्बोधने यद्वाक्यं तस्य टेः प्लुतः वा स्यात्. भाष्यकारैः प्लुतसम्बद्धसूत्राणि विकल्पेन भवन्ति तस्मात् वा सूत्रे आनीयते. अरे देवदत्त इति दृष्टान्ते सम्बोधनस्य अकारः विकल्पेन प्लुतो भवति देवदत्त इति. जयोहोऽन्यतरस्याम् इत्यनेन हकारस्य स्थाने दकारादेशः. धूरात् पञ्चम्यन्तं हूते सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रं. वाक्यस्य टेः प्लुत उदात्तः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सूत्रं धूरात् हूते च वाक्यस्य टेः प्लुतः वा इति अस्ति. दूरात् सम्बोधने यद्वाक्यं तस्य टेः प्लुतः वा स्यात्. प्रथमं प्लुतः इत्युक्ते किं, टेः इत्युक्ते किम् इति पश्यामः. अत्र अचोन्त्यादि टि एतत् सूत्रं संज्ञासूत्रं. टि इत्युक्ते किम्? अचां मध्ये यः अन्त्यः सः आदिः यस्य तत् टि संज्ञकं स्यात्. सूत्रं स्वयं सम्पूर्णं अचः अन्त्यादि टि इत्युक्ते अचां यदि वयं देवदत्त इति उदाहरणं स्वीकुर्मः चेत् तत्र चत्वारः स्वराः सन्ति. तत्र तस्मिन् उदाहरणे अन्तिमस्वरः दत्त इति अस्ति. अन्तिम आकारः टी भागः भवति. इत्युक्ते अन्तिम आकारस्य अनन्तरं यत्किमपि अस्ति तत्सर्वं टी भागः इति उच्यते.
समीचीनं भगिनि, बहु सम्यक् इति एव अस्ति. नाम देवदत्त इत्यत्र अकारः एव अन्तिमः इति कृत्वा सः टी भागः इति उच्यते. इदानीम् इतोपि एकं पदं वदामि, उदाहरणम्. उदाहरणम् इत्यस्मिन् पदे
उदाहरणं नम् इत्यस्य तत्र नम् नकारः उत्तरवर्ति अकारः अस्ति, अनन्तरं मकारः अस्ति. अकारः एव अन्तिमस्वरः, अतः टी भागः अम् इति अस्ति.
हा, अकारः. तस्मात् आरभ्य यत्किमपि भवति अग्रे तत्सर्वं टी भागः इति उच्यते. अस्तु, हा, टी भागः इत्युक्ते टी महोदय. हा हा, अस्तु. तर्हि टि भागः टि संज्ञा का इति ज्ञातवन्तः. अधुना दूराधूते च इत्यस्मिन्
भगिनि एकवारं उदाहरणम् अनन्तर उदाहरणं न कोऽपि
अस्तु भगिनि. तर्हि विद्या भगिनी अपि उक्तवती खलु देवदत्त इत्यस्मिन् अकारः अन्तिम अकारः टि भागः तावदेव अस्ति. अचोन्त्यादिः टि इत्युक्ते अचां मध्ये यः टि. अचाम् इति षष्टिविभक्ति अस्ति, परन्तु तत्र सप्तमी इव कार्यं करोति खलु. अच्सु मध्ये बालकेषु एकः बालकः उन्नतः इति यदा वदामः, तथा अचां मध्ये यः अन्त्यः अथवा अन्तिमः अस्ति देवदत्त इत्यस्मिन् अन्तिम अकारः तस्य टि भागः तावदेव.
अव्ययपदम् अत्र
भगिनि भगिनि अव्यय अव्ययम् इति वार्ता नास्ति
ट्रैङ्ग् टु अण्डर्स्टाण्ड् वै टी
टी इति एका संज्ञा तावदेव गुणः इति एका गुणः इत्युक्ते किम् इति वदति खलु संज्ञासूत्राणि तद्वदेव टी इति एका संज्ञा तावदेव अस्तु टी इत्यस्य भागस्य प्लुतसंज्ञा कुत्र भवति इति भगिनी अधुना वदति दूराधूते च भगिनी वदतु विद्यापति
दूराधूते च दूरात् सम्बोधने यत् वाक्यं तस्य तेः प्लुतः वा स्यात् इत्युक्ते यदि वयम् अरे देवदत्त इति देवदत्त इति उदाहरणं स्वीकुर्मः चेत् यदि तद् वाक्यं तस्य टे भागः अस्ति अकारः तद् विकल्पेन प्लुतः भवति यदि प्लुतः भवति चेत् अरे देवदत्त इति भवति अत्र सूत्रं विकल्पेन प्लुतसंज्ञकवर्णं प्राप्नोति इति अस्ति
तथैव कृष्ण
तथैव कृष्ण
तथैव कृष्ण आगच्छ कृष्ण इत्यत्रापि एकं वाक्यम् अस्ति अत्र स्मर्तव्यमस्ति यत् दूरात् सम्बोधने यद् वाक्यं वाक्यं यत्र भवति यः कोऽपि सम्बोधनम् इति न वाक्यं यत्र भवति सम्बोधने दूरात् सम्बोधने तस्मिन् वाक्ये यः टी भागः अस्ति अत्र जानीमः अरे देवदत्त इत्यत्र तकारोत्तरवर्ति अकारः अथवा आगच्छ कृष्ण इत्यत्र णकारोत्तरवर्ति अकारः तस्य प्लुतः इति संज्ञा भवति अस्तु
तदैव ईकार इकार तु अस्ति न ईकार आयाति न
कुत्र भगिनि
सरस्वती
हा एकनिमिष तत्र सरस्वती इति केवलं वदति चेत् तत्र दूराद् सम्बोधने अस्ति न वा इति द्रष्टव्यं वाक्यं किं दूराद् सम्बोधनार्थे तद् वाक्यं
हे सरस्वती
हा सत्यं तत्र सम्बोधन दूराद् सम्बोधने एकं वाक्यमस्ति हे सरस्वती इति चेत् तत्र वक्तुः विवक्षानुगुणं विकल्पेन तस्य इकारस्य प्लुतसंज्ञा भवति विकल्पेन इति प्रमुखवार्ता अस्ति
इकारः तु प्लुतम् अस्ति
प्लुत नास्ति इकारः वक्तुः विवक्षानुगुणं सः इकारः प्लुतः भवितुम् अर्हति इति दूराधूते च इति सूत्रं वदति अस्तु विद्या भगिनी इदानीं वदतु एकवारं विकल्पेन प्लुतसंज्ञा भवति चेत् तदा किं प्रकृतिभावः नित्यः वा वैकल्पिकः वा
हा यदि प्लुतसंज्ञा प्राप्नोति चेत् तदा प्रकृतिभावः नित्यं भवति प्लुतप्रगृह्य अचि नित्यम् इति सूत्रेण यदि प्लुतवर्णः प्राप्नोति चेत् तदा प्रकृतिभावः नित्यं भवति
हा हा सम्यक् तर्हि तत्र वैकल्पिकम् इति किमपि नास्ति एकवारं प्लुतसंज्ञा भवति चेत् प्रकृतिभावः नित्यः भवति इति वार्ता अस्तु
वर्णः सर्वदा सम्बोधनसन्दर्भे एव आयाति वा अथवा प्रायः सम्बोधनसन्दर्भे आयाति वा
तत्र हा मम उत्तरं नास्ति महोदय किन्तु प्लुतः इत्युक्ते त्रिमात्राकालेन उच्चार्यमाणः यः कोऽपि स्वरः तादृशप्रयोगः कुत्र कुत्र विरलतया एव दृश्यते सामान्यसंस्कृतभाषायां परन्तु वयम् अस्मिन् पुस्तके तु यत्र 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 कुत्रापि पश्यामः तत् प्रायः सम्बोधनात् एव इति अस्ति इति भाति अस्तु अस्तु तर्हि जयोः अन्यतरस्याम् इति वस्तुतः हल् सन्धि विधायकं सूत्रम् अस्ति तद् अग्रे पश्येम केवलं तत्र हकारस्य स्थाने धकारादेशः कथं भवति इति प्रदर्शयितुं यतोहि तत्र दूराद् हूते इति अस्ति तयोः सन्धिः भूत्वा दूराद्धूते च इति आगतं तदर्थमेव जयोः अन्यतरस्याम् अत्र कार्यं करोति इति सूचितमस्ति अस्तु सम्यक् अस्ति तर्हि सहदेव महोदय पुस्तके सहदेव महोदय अस्ति वा
श्रूयते
हा श्रूयते महोदय
प्रश्नः अस्ति वाक्यस्य वाक्ये इत्युक्ते किं तथा वाक्यम् अस्ति अरे देवदत्त आगच्छ तत्र प्लुतः भवितुमर्हति वा न
अरे देवदत्त इति एकं वाक्यमस्ति
न पूर्णवाक्यमस्ति अरे देवदत्त आगच्छ
अस्तु तर्हि भवतः वाक्यस्य अन्ते नास्ति देवदत्त इति खलु भवान् वदति हा तत्र न स्यात् महोदय वाक्यस्य टी भागः इति एव अस्ति
वाक्यस्य अन्तिमपदं भवेत् तत् सम्बोधनपदं
सत्यं
धन्यवादः
हा एकवारं सन्धिपुस्तके अपि पश्यामि तथैव अस्ति दूरात् सम्बोधने यद्वाक्यं तस्य वाक्यस्य अन्तिमस्वरः सः प्लुतः भवितुम् अर्हति तर्हि अत्र प्लुतः वाक्यसम्बन्धितः प्लुतः इति स्मर्तव्यम् अस्तु
अत्र सूत्रे वा इति कुत्र अस्ति कस्मिन् सूत्रे
सूत्रे अस्मिन् सूत्रे नास्ति किन्तु भाष्यकाराणां भाष्यां दृष्ट्वा प्लुतसम्बद्धसूत्राणि विकल्पेन भवन्ति तस्मात् एव वा इति आनीयते सूत्रस्य व्याख्यायाम् इति उक्तं वस्तुतः सूत्रे नास्ति इति सत्यमेव
भगिनि अत्र यथा अनुवृत्तिसहितसूत्रम् अस्ति तत् तत्र तु वा अस्ति
हा सत्यं सत्यं महोदय भाष्यकाराणां भाष्यां दृष्ट्वा एव तथा वक्तुं शक्यते वा इति आनीयते इति
प्लुतः तु दूराधूते अवस्थायामेव भवति
न भवति तत्रापि अरे देवदत्त इत्यत्र सम्बोधना अस्ति खलु तत्र प्लुत भवितुमपि यदि दूरात् सम्बोधनं भवति अपि च वक्तुः इच्छा अस्ति चेत् प्लुतस्य प्रयोगं कर्तुं नाम त्रिमात्राकालेन अधिकं यावान् समयः अपेक्षते त्रिमात्राकालः समयः भवति चेत् तत्र तदा एव भवति प्लुत इति संज्ञा वाक्यस्य अन्ते यत्र सम्बोधनं भवति तत्रैव प्लुतः भवति तर्हि अत्र अरे देवदत्त इति स्वयम् एकं वाक्यम् अस्तु तत्र पूर्णविरामः स्थापनीयः तदनन्तरं यत्किमपि भवतु इति विवक्षा स्यात् तदा एव भवति प्लुतसंज्ञा अस्तु
धन्यवादः
अस्तु तर्हि सहदेव महोदय हा तर्हि पुष्पा भगिनी यत् पृष्टवती सरस्वती इति भगिनी तत्र सर्वदा प्लुतसंज्ञा न भवति श्लोकस्य मध्ये कुत्रचित् आगच्छति चेत् तत्र प्लुतसंज्ञा न भवति तादृशविवक्षा नास्ति खलु दूरादाह्वानम् इति नास्ति खलु विवक्षा अस्तु
दूरास्ते चेत् तत्तु
दूराद् आह्वानं भवतु अपि च वाक्यस्य अन्तिमस्वरः भवतु तदा एव प्लुतसंज्ञा भवितुम् अर्हति इति अस्ति अस्तु सहदेव महोदय महोदय पुनः
यदि वाक्यस्य अन्ते भवति पृथवर्णकशब्दः तदा तु यदा अनन्तरम् अग्रिमं वाक्यम् आगच्छति प्रकृतिभावः इति किमर्थम् उच्यते तदा वाक्ययोः मध्ये सन्धिः भवितुमर्हति किं तत्र
आमामां सन्धिः भवितुमर्हति वयं दृष्टवन्तः प्रथमपाठे एव एकवारं दृष्टवन्तः खलु कुत्र कुत्र सन्धिः भवति इति तत्र एकः श्लोकः आसीत् संहितैकपदे नित्यानित्या धातुपसर्गयोः नाम एकस्मिन् पदे यत्र समस्तपदं वा तथा भवति अथवा प्रत्ययस्य योजनेन पदं भवति चेत् पदं निष्पन्नं भवति चेत् तत्र सन्धिः नित्यः धातु उपसर्गयोः नित्यः समासे अपि नित्यः किन्तु वाक्यस्तरे वक्तुः विवक्षानुगुणं पुनः विकल्पेन भवति सन्धिः इति तु
वाक्योर्मध्ये इति वा वाक्योर्मध्येपि सन्धिः भवितुमर्हति विकल्पः
सत्यं सत्यं सौकर्यार्थं तथा न कुर्मः इति भिन्ना वार्ता परन्तु वाक्यस्तरे वैकल्पिकरीत्या सन्धिः भवति एव तर्हि अत्र यदि वक्तुः इच्छा अस्ति सन्धिः करणीयः इति इच्छा अस्ति चेत् वाक्यस्तरे तदा एकस्य वाक्यस्य अन्ते प्लुतवर्णः अस्ति चेत् तस्मात् परः अपरस्मिन् वाक्ये पुनः स्वरः आगच्छति चेत् प्रथमवर्णः तदा सन्धिः भवति वक्तुः
तर्हि वाक्यस्य लक्षणं किं
वाक्यमिति सुबन्तानां तिगन्तानां चयः इति उच्यते खलु सुबन्तं भवतु तिङन्तं भवति चेत् तत्र वाक्यम् इति उच्यते
वाक्यस्य वाक्यस्य भिन्नता कथं अवगन्तव्यं वाक्यस्य
हा हा
द्वे वाक्ये भिन्ने इति कथम् अवगन्तव्यं तथा
सत्यं तर्हि अस्तु वाक्ये उपवाक्यमपि भवितुमर्हति यथा अहम् अन्नं खादयित्वा गृहं गच्छामि इति किमपि भवति चेत् तत्तु एकं वाक्यम् इति खलु सुबन्तमपि अस्ति तिगन्तमपि अस्ति तत्रापि प्रथमभागः खादयित्वा इत्यस्मात् परं किन्तु एकस्मिन्नेव वाक्ये एव भवति उपवाक्यरूपेण तर्हि वाक्यं किम् इत्युक्ते सुबन्तानां तिगन्तानां चयः इति वक्तव्यमेव भवति अहं भोजनं कृत्वा गृहं गच्छामि इति एकं वाक्यं पुनः तस्मिन्नेव यदि पूर्णविरामम् स्थापयित्वा अन्यत् किमपि तिगन्तम् इत्युक्ते क्रियापदं युक्तः कश्चन भागः तत्र भवति चेत् तर्हि अवगन्तव्यं भवति अत्र वाक्यद्वयम् अस्ति इत्येव एकनिमिष सञ्जय महोदय किम् आसीत्
उदाहरणार्थम् अहम् अन्नं खादामि एकं वाक्यमस्ति अनन्तरम् अधुना शालां गच्छामि द्वितीयं वाक्यमस्ति तदा सन्धिः भवितुमर्हति अहम् अन्नं खादाम्यधुना शालां गच्छामि
अवश्यं भवति अहम् अन्नं खादामि इति एकं वाक्यम् अस्तु भवतः विवक्षानुगुणम् अधुना शालां गच्छामि इति द्वितीयवाक्यमस्ति चेत् तत्र अहम् अन्नं खादामि अधुना शालां गच्छामि इति अवश्यं भवितुमर्हति सन्धि कर्तुम् इच्छति चेत् वाक्यस्तरे
धन्यवादः
अस्तु पुष्पा भगिनी
अत्र भगिनी सम्बोधनार्थे कोऽपि सम्बोधनं करोति चेत् तत्तु वाक्यम् अस्ति न
सत्यं
कोऽपि सरला तत्तु हे सरला तत्तु वाक्यमस्ति न
तत्र चिन्तनीयमस्ति भगिनि चिन्तयित्वा वदामि यतोहि एकवारं वाक्यमिति सुबन्तानां तिङन्तानां चयः इति वदामश्चेत् तत्र हा चिन्तयित्वा वदामि प्रायः तत्र वाक्यं न स्यात् इति
तथैव हे देवदत्ता हे देवदत्त अरे देवदत्त तु सिमिलर् न
चिन्तनीयं भवति अरे देवदत्त वाक्यम् अस्ति न वा इति परिशील्य वदामि प्रायः तत्र हा तिङन्तम् इति नास्ति तर्हि यथा वाक्यं किम् इति प्रश्ने आगते तर्हि तिङन्तानां सुबन्तानां चयः इति वदामश्चेत् तत्र तिङन्तं तु नास्ति
परन्तु वाक्यम् अत्र सन्धि एतत् सूत्रपरे एतु
सूत्रं तु वाक्यस्तरे कार्यं करोति अरे देवदत्त समीचीनम् उदाहरणमस्ति न वा इति चिन्तनीयं पुस्तके यद् उदाहरणमस्ति कृष्ण आगच्छ कृष्ण इति तत्र अवश्यं प्लुतसंज्ञा भवितुम् अर्हति अस्तु तर्हि सादे महोदय तस्मिन् पुटे एव
देवदत्त केवलं प्लुतवर्ण कः अस्ति तस्य उदाहरणमस्ति तत्र सन्धिय प्रति नास्ति अरे देवदत्त उदाहरणं।
सत्यं भगिनि, तत्र तेषां प्रश्नः आसीत् यत् अरे देवदत्त इत्यत्र सम्बोधना अस्ति खलु?
आम्।
हा, तत्र अन्तिम अकारः विकल्पेन प्लुतः भवितुम् अर्हति न वा इति तेषां प्रश्नः आसीत्। यतोहि अस्माभिः किम् उक्तम् अत्र, सूत्रानुगुणं तु दूरात् सम्बोधने वाक्ये खलु, वाक्यस्य अन्ते यः टि अस्ति तेः प्लुतः भवति इति। अरे देवदत्त स्वयं वाक्यम् अस्ति न वा इति प्रश्नः। मम अनु मम मत्यानुगुणं तु प्रायः तत्र क्लास् इति वदामः खलु, हा प्रायः क्लास् इति चिन्तयामि, तत् किञ्चित् परिष्कारः अपेक्षितः तत्र। अस्तु, पृष्ट्वा वदिष्यामि। अस्तु सहदे महोदय, तत्र प्रगृह्यम् इति काचित् संज्ञा इति पश्यति वा? प्रकृतिभावः इति अस्ति, प्रकृतिभावः इति काचित् संज्ञा इति अस्ति, पश्यति वा? तत्र त्रीणि त्रयः बिन्दवः सन्ति, प्रकृतिभावस्य उदाहरणमस्ति, ततः अग्रे गच्छतु, अत्र तस्मात् आरभ्य पठतु।
अत्र पूर्वपदम् इकारान्तम् उकारान्तम् एकारान्तं च द्विवचनम् अस्ति, तस्मात् परतः स्वरः अस्ति, अतः स्वरसन्धेः निमित्तम् अस्ति, तथापि सन्धेः अभावः प्रकृह्यम् इति काचित् संज्ञा।
हा, इति वयं दृष्टवन्तः पूर्वस्मिन् तत्र उदाहरणेषु, ईकारान्त ऊकारान्त एकारान्त पदानि सन्ति द्विवचने, तेषां परतः तस्मात् तेभ्यः परतः स्वरः अस्ति, तत्र सन्धिः न भवति इति उदाहरणानि। अस्तु, अग्रिमबिन्दुः कः इति पठतु, प्रगृह्यम् इति काचित् संज्ञा कुत्र कुत्र?
ईकारान्तम् ऊकारान्तम् एकारान्तं च द्विवचनं प्रकृह्यं भवति। अमी एतस्य इकारः प्रकृह्य भवति, उकारान्तम् अव्ययम् आ इत्यव्ययम् इत्यव्ययं च आङ् न ग्राह्य प्रकृह्यं भवति।
हा, प्रथमबिन्दुः आसीत् ईकारान्त ऊकारान्त एकारान्त द्विवचनं प्रगृह्यं भवति इति वयं दृष्टवन्तः, ईदु दे द्विवचनं प्रगृह्यम् इति आसीत् खलु सूत्रं, तद्दृष्टवन्तः। द्वितीयबिन्दुः अस्ति अमि इत्यस्य ईकारः प्रगृह्य भवति, तद्वद् ओकारान्तमव्ययम् आ इति अव्ययम् आङ् वर्जयित्वा प्रगृह्यं भवति इति। तर्हि अधः उदाहरणानि सन्ति, सहदे महोदय पश्यतु एकवारं, पठति वा?
अग्रे अग्रे प्रकृह्य प्रकृतिभावस्य अन्यानि उदाहरणानि, अमी योगः आश्रमाः, यन्सन्धेहे निमित्तम् अस्ति इति अमी आश्रमाः।
तत्र अमी योगः आश्रमाः इत्यत्र कस्य प्रगृह्यसंज्ञा महोदय?
चिन्तयामि, प्रगृह्यसंज्ञा
अमी इत्यस्य ईकारः प्रगृह्य भवति इति भवता पठितं खलु, द्वितीयबिन्दुः, द्वितीयबिन्दुः इत्युक्ते पायिण्ट् नम्बर् टु, तत्र अमि इत्यस्य ईकारः प्रगृह्यः भवति इति उक्तं खलु, अमि हा अमि इत्यस्य पदस्य ईकारः प्रगृह्यः भवति, तस्मात् परः अस्ति आश्रमाः, तर्हि स्वरः आगच्छति, कः सन्धिः भवितुमर्हति तत्र?
प्रकृतिभावः
कः सन्धिः भवितुम् अर्हति बालसुब्रह्मण्य महोदय हा हा यण् सन्धिः भवितुम् अर्हति तत्र लिखितमस्ति खलु सहदेव महोदय यण् सन्धेः निमित्तम् अस्ति परन्तु यण् सन्धिः न भवति यतोहि तत्र ईकारस्य प्रगृह्यसंज्ञा अस्ति अपि च प्लुतप्रगृह्या अचि नित्यम् इति सूत्रं तत्र कार्यं करोति नित्यरूपेण प्रकृतिभावः अमीय आश्रमाः इति अग्रे
अहो योगः अत्र पूर्वरूपसन्धेः निमित्तम् अस्ति अहो अत्र
तत्र कस्य प्रगृह्यसंज्ञा भवति अहो योगः अत्र इति अत्र
ओकारान्तम् अव्ययम्
अहो इति ओकारान्तम् अव्ययम् अस्ति प्रगृह्यम् अस्तु अहो योगः अत्र इत्यस्मिन् कः सन्धिः भवितुम् अर्हति
पूर्वरूपसन्धेः
सत्यं हा पूर्वरूपसन्धेः निमित्तम् अस्ति इति उक्तं पूर्वरूपसन्धेः निमित्तं किम् पूर्वस्मिन् पुटे पूर्वस्मिन् पुटे पश्यतु पूर्वरूपसन्धिः इति यत्र अस्ति एकविंशतितमे पुटे अधोभागे अस्ति पूर्वरूपसन्धिः खलु
अकारः योगः एकारः
एकनिमिष कुत्र अस्ति भवान् पूर्वरूपसन्धिः इत्यत्र मे योगः अच्युत इति पश्यतु पदान्ते एकारः अस्ति तस्मात् अकारः अस्ति गतवर्गे अपि किञ्चित् चर्चितवन्तः पूर्वरूपसन्धिः यत्र कुत्र भवति सूत्रं स्मरति वा एङ्गः पदान्ताद् अति इति पदान्तस्य एङ् वर्णात् परः अकारः अस्ति चेत्
रामो योगः अपि
रामोऽपि हा समीचीनं तद्वदेव अत्र अहो योगः अत्र इत्यत्रापि पूर्वरूपसन्धेः निमित्तम् अस्ति खलु एङ् इत्यस्मिन् ओकारः अस्ति एव अन्तर्भूतः पदान्तः अपि पदान्त ओकारः तस्मात् परः अकारः पूर्वरूपसन्धेः निमित्तम् अस्ति परन्तु न भवति अहो अत्र इत्येव भवति
अस्तु
अस्तु अग्रे
अभ्यासः
एकनिमिष इतोपि एकम् अस्ति तत्र उदाहरणम्
ओ आयोगः एवं नु मन्यसे वृद्धिसन्धेः निमित्तम् अस्ति इति आ एवं नु मन्यसे
खलु वृद्धिसन्धिः भवितुम् अर्हति तत्रापि
आम्
वृद्धिरेचि इति आत् एच् वर्णः किन्तु न भवति यतोहि आकारस्य तत्र प्रगृह्यसंज्ञा अस्ति इति समीचीनम् इति दृष्टवन्तः अग्रे गत्वा कुत्र कुत्र प्रगृह्यसंज्ञा भवति इति अधुना सूत्राणि परिशीलयिष्यामः एकवारं
क्षम्यतां महोदय अमि इति वार्ता हरिः हरि हरेः एतत् सदृशं वा अमिः अमि अमयः एवं वा
न वस्तुतः तत्तु सर्वनामपदमस्ति महोदय सर्वाणि रूपाणि न स्मरामि किन्तु असौ अमु अमि अमुम् अमु अमुन् यथा अयं तथा
सत्यं सत्यं धन्यवादः
हा सरला भगिनी तत्र करपत्रे अधसोमात् इति सूत्रमस्ति किञ्चित् परिशीलयति वा
अधसोमात् अधः शब्दस्य मकारात् परः ईकार ऊकार च प्रघ्यसंज्ञको स्तः अस्मात् परायि दूतौ प्रगृहौ स्तः अमू अमि अदः शब्दः त्रिषु लिङ्गेषु प्रथमविभक्तौ द्वितीयविभक्तौ च द्विवचने अमो इति रूपं भवति. पुल्लिङ्गे प्रथमाविभक्तौ बहुवचने अमे, अदस् षष्ठ्यन्तं, मात् पञ्चमन्तं, द्विपदं सूत्रम्. द्विवचनं प्रगृहम् इत्यस्मात् ईदूत् गृहम् इत्यनयो अनुवृत्ति, अनुवृत्तिशतसूत्रम्, अदस्मात् ईदूत् प्रगृहम्. अदस् शब्दः सर्वनामशब्दस्य तस्य मकारान्त परः ईकार उकार प्रज्ञसंज्ञक संज्ञकौ वर्णः स्तः. इत्युक्तौ यदा अदस् शब्दस्य अमि ईकारान्तशब्दः अस्ति, अमु उकारान्तशब्दः अस्ति. अदस् शब्दः त्रिषु लिङ्गेषु प्रथमाविभक्तौ द्वितीयविभक्तौ च द्विवचने अमु इति रूपं भवति. वचने आगच्छति अमि बहुवचने आगच्छति, पुल्लिङ्गशब्दः अस्ति, प्रथमाविभक्तौ बहुवचने अमि. अतः अनुवृत्तिसहितसूत्रमस्ति अदस् मात् इदूत् प्रभ्यम्. अदस् इति सर्वनामशब्दस्य परतः इति पञ्चमे अन्तम् अस्ति भगिनी रै. अदस् अत्र अत्र
अदसः षष्ट्यन्तं खलु, अत्र उक्तमस्ति अदसः षष्ट्यन्तं मात् पञ्चम्यन्तम्.
अस्तु, मात् पञ्चमन्तम् अस्तु. ईदूत् अत्र अदस्य विषय रामस्य तस्य इति रीत्या अस्ति
किम्,
यथा विभक्ति रामस्य
तथा अदसः इत्युक्ते तथा अस्ति,
तथा अस्ति. अदस्मात् अदस् सर्वनाम पदस्य मात् मकार तस्य परे ईदूत् प्रगृहम् अस्ति, ईकार ऊकार प्रज्ञ संज्ञा अस्ति तस्य.
सत्यम् इत्युक्ते वस्तुतः द्विवचने बहुवचने एव अदस् शब्दस्य. अदस् शब्दः कुत्रचित् लभ्यते करपत्रेषु आवलीं पश्यन्ति चेत् तत्र द्विवचने अपि च द्विवचने अमु बहुवचने अमि इति अस्ति त्रिषु लिङ्गेषु, तस्य ऊकारस्य ईकारस्य प्रगृह्यसंज्ञा भवति. अस्तु इति एव अस्ति. अमी आश्रमाः इति उदाहरणे तथा एव अस्ति, प्रगृह्यसंज्ञा अस्ति इति कृत्वा प्रकृतिभावः नित्यः इति. अस्तु अग्रे अस्ति ओकारान्त अव्ययस्य विषयः. रविप्रकाशमहोदय अग्रिमसूत्रं पठति वा? रविप्रकाश महोदय अस्ति किम्? अस्तु सञ्जीवमहोदय.
आं भगिनि
अग्रिमसूत्रं महोदय.
ओकारान्तनिपातशब्दः प्रगृह्य संज्ञकः स्यात्, ऊदन्तो निपातः प्रगृह्यः स्यात्. यत्र ओकारः आगच्छति निपातरूपेण तत्र प्रगृह्यसंज्ञा भवति इति अर्थः.
हा, ओकारान्तनिपातः इत्युक्ते ओकारान्त अव्ययं तावदेव.
ओकारान्त अव्ययम् येन विधिः तदन्तस्य चित्तनेन तदन्तविधिः अनेन ओकारान्तनिपातः. अहो ईशाः इत्यत्र श्रुतप्रगृह्या अचिनित्यम् चित्तनेन प्रकृतिभावः न तु एचोयावयवः भवति. ओत् प्रथमान्तम् एकपदमिदं सूत्रं निपातजनान् इत्यस्मात् निपातः इत्य अनुवृत्ति. ईदूदद्विवचं प्रगृहम् इत्यस्मात् प्रगृह्यम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् ओत्निपातः प्रकृष्टम् यत्र यत्र ओत् ओ ओकारान्त अव्ययं भवति तत्र कृत प्रकृष्टसंज्ञा भवति नित्यं न तु यान्तावान्तसन्धिः भवति.
हा वस्तुतः तत्र दोषः अस्ति, परिष्कर्तव्यः दोषः. यतोहि अस्माभिः दृष्टं खलु अहोयोगः ईशाः इत्यत्र प्लुतप्रगृह्य अचिनित्यम् इत्यनेन प्रकृतिभावः इति जानीमः. यतोहि ओत् इति ओकारान्तनिपातशब्दः खलु, येन विदिस्तदन्तस्य इति सूत्रं वदति यत् अस्तु, ओत् इत्यनेन केवलम् ओकारः इति न, परन्तु ओकारान्तपदम् अथवा ओकारान्तं यत्किमपि अस्ति तद् ग्राह्यम् इति येन विदिस्तदन्तस्य इति परिभाषासूत्रमस्ति. तावदेव इति भिन्ना वार्ता. परन्तु अस्मिन् तदनन्तरं यद् उदाहरणं दत्तम् अहो ईशाः इत्यत्र प्लुतप्रगृह्य अचिनित्यम् इत्यनेन प्रकृतिभावः भवति, परन्तु पूर्वरूपसन्धिं प्रबाद्य इत्येव चिन्तयामि, न तु यचोयवायावः. यचोयवायावः कस्य सन्धेः विधायकसूत्रं महोदय? यान्तवान्तसन्धिः. वस्तुतः यान्तवान्तसन्धिः कार्यं कर्तुम् आगच्छति, पूर्वरूपसन्धिः यत्र भवितुमर्हति तत्रापि, परन्तु तद् प्रबाद्य पूर्वरूपसन्धिः भवति. अत्र तु पूर्वरूपसन्धिमपि प्रबाद्य प्रकृतिभावः भवति इति वार्ता खलु. यतोहि अहो इति अपि एकं पदमस्ति, पदान्त ओकारः अस्ति. ओ अस्तु, क्षम्यताम्, अहो अत्र इत्यत्र पूर्वरूप, अहो ईशः इत्यत्र यचोयवायावः एव. यतोहि हा ओकारात् परः ईकारः अस्ति, सत्यं, क्षम्यताम्, अव्ययः तु अस्ति भगिनि, किन्तु तस्मात् परतः अकारः नास्ति, ईकारः, तर्हि यचोयवायावः एव. हा सत्यं, हा अस्तु इति अस्ति. अस्तु, ओत् निपातः प्रगृह्यम् इति ओकारान्त अव्ययस्य प्रगृह्यसंज्ञा भवति इति अस्ति. अग्रिमसूत्रं कः का पठति? राधिका भगिनी पठितुं शक्नोति वा?
आं भगिनि, पठितुं शक्नोमि इदानीं. निपात एका जनाङ्ग, एकात् निपातः प्रगृह्य सम्यकः स्यात् आङ् वर्जयित्वा. एको निपातः आङ् आङ् वर्जः प्रगृह्यः स्यात्. दृष्टान्ते इ इन्द्र अहो अहो इन्द्र उ उमेश अहो उमेश उमेशः उभयत्र कृतप्रगृह्या अचि नित्यम् इत्यनेन प्रकृतिभावः न तु सवर्णदीर्घसन्धिः. एकश्चासौ अच् एकाच् कर्मधारयः न आङ् अनाङ् नै तत्पुरुषः. ईतूदे द्विवचनं प्रगृह्यम् इत्यस्मात् प्रगृह्यम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अनाङ् एकाच् निपातः प्रगृह्यः. एक आच् निपातः प्रगृह्य सम्यकः स्यात् आङ् वर्जयित्वा.
हा आङ् इत्यपि एकम् अव्ययम् अस्ति भगिनि, अग्रे पश्यामः. किन्तु एकाच् निपातः इत्युक्ते एकः एव अच् अच् इत्युक्ते न अवर्णः नास्ति, अकारः नास्ति. अच् इत्युक्ते भगिनि, राधिका भगिनि, स्वरः स्वरः एकः एव अच् यस्मिन् अव्यये अस्ति तादृशस्य प्रगृह्यसंज्ञा इति. दृष्टान्ते
दृष्टान्ते इ इन्द्रः अहो अहो इन्द्रः उ उमेशः इति पदे अहो उमेशः उभयत्र कृतप्रगृह्या अचि नित्यम् इति उच्यते अत्र. नित्यम् अस्ति इति इत्यनेन
कः सन्धिः भवितुम् अर्हति स्म तयोः मध्ये इ इन्द्र इत्यत्र
अहो इन्द्र इति पूर्वरूपसन्धि
न क्षम्यतां क्षम्यतां मया दोषेण उक्तः अहो इन्द्रः इत्यत्र यान्तवान्ते यान्तवान्तादेशसन्धिः एव खलु यथा सञ्जीव महोदयेन पठितम् अत्र एचो यव याः वः कर्तुं कार्यं
कर्तुं
तत्र ओकारात् अकारः अस्ति चेत् पूर्वरूपसन्धिः यथा पुस्तके प्रदर्शितम् अहो अत्र परन्तु अस्माकं वार्ता अहो इन्द्र इति नास्ति इ इन्द्र इन्द्रः इति अस्ति वार्ता खलु दृष्टान्ते इ इन्द्रः इति अस्ति खलु भगिनि तत्र एकाच् निपातः कः तयोः मध्ये इ योगः इन्द्रः तत्र कः सन्धिः भवितुम् अर्हति सवर्णदीर्घसन्धिः भवितुम् अर्हति किन्तु न भवति यतोहि
तत्र पृथप्रगृह्य नित्यम् आगच्छति अत्र
पृथप्रगृह्य अचि नित्यं कार्यं कर्तुम् आगच्छति किमर्थं चेत् इकारस्य इ इति अस्ति खलु एकाच् निपातः तस्य प्रगृह्य संज्ञा बुद्धम् तद्वदेव उमेशः इत्यत्रापि
भगिनि एकाच् निपातस्य अर्थं स्पष्टं नास्ति
एकाच् स्पष्टमस्ति वा भगिनि एकः एव अच् एकाच् स्पष्टम् एकः एव स्वरः तादृशनिपातः अस्ति इ अपि च उ इति प्रदर्शितमस्ति अत्र अपि च पुस्तके
अन्तिमवर्णप्लुत् नास्ति यथा वयं कृष्ण देवदत्त तत्र अन्तिमवर्णप्लुत् भवति तत्र प्रथमं
प्रथमवर्णस्य का संज्ञा अस्ति अस्तु अस्तु तत् सर्वं सत्यं किन्तु प्लुतसंज्ञा अस्ति वा प्रगृह्यसंज्ञा अस्ति वा किं चर्चयन्तः स्मः अधुना वयं अनुवृत्तिसहितसूत्रं पठतु प्रगृह्यसंज्ञा खलु ओत् अपि च निपातः एकजानाङ् अपि च अदसो मात् अनन्तरं किम् ईदु द्विवचनं प्रगृह्यम्
अस्तु अस्तु
एतानि सर्वाणि सूत्राणि प्रगृह्यसंज्ञा विधायकानि सूत्राणि एव
अस्तु
प्लुतसंज्ञार्थं दूराधूते च इत्येव अस्ति
अस्तु
अस्तु
भगिनि भगिनि एकः प्रश्नः निपातः तत् पदं किं
अव्ययम्
निपातः तु अव्ययं सूचयति
सत्यं निपातः इति एका संज्ञा अस्ति वस्तुतः अव्ययम् इति चिन्तयतु अधुना अस्तु तर्हि प्रकृतिभावः प्लुतप्रगृह्य अचिनित्यम् इति एव एकं प्रकृतिभावविधायकसूत्रमस्ति विधायकसूत्रम् इत्युक्ते कुत्र प्रकृतिभावः भवति इति वक्तुम् एकमेव सूत्रम् अन्यानि सर्वाणि सूत्राणि यदस्माभिः परिशीलितम् अधुना ईदु द्विवचनं प्रगृह्यं दूराधूते च अदसो मात् ओत् निपात एकजानाङ् एतत् सर्वं संज्ञासूत्राणि सन्ति एतानि सर्वाणि प्रगृह्यम् इत्युक्ते किम् प्लुतः कुत्र इति वक्तुं तावदेव प्रकृति प्लुतप्रगृह्य प्रकृतिभावस्य विधायकसूत्रम् एकमेव अन्यानि सर्वाणि संज्ञासूत्राणि इति स्मर्तव्यं बुद्धम्
अत्र अहो इन्द्र ईकार प्रज्ञसंज्ञा अस्ति अहो उमेश उकार प्रज्ञसंज्ञा अस्ति तत्र
नास्ति भगिनि तत्र अहो इन्द्र इत्यत्र प्रगृह्यसंज्ञा कस्य अस्ति?
अहो ओकारः,
हा ओकारस्य खलु, हा तर्हि कः सन्धिः भवितुम् अर्हति ओकारः ईकारः अनयोः? हा एचो यवयावः इति सूत्रेण भवितुम् अर्हति किन्तु न भवति खलु, ओत् इत्यनेन ओकारस्य प्रगृह्यसंज्ञा भवति.
अस्तु
अस्तु
ओके
अस्तु अग्रे सरेम तर्हि. अजय महोदय अग्रे पठति वा करपत्रे?
अत्र एकाच् निपातः इत्युक्तं, तादृशः निपातः यस्मिन् एक एव स्वरः तद्विहाय न हल्वर्णः न वा अन्यः स्वरः भवेत्. नाम एक एव वर्णः स्यात्, स च वर्णः स्वरः हि. अतः अस्मिन् सूत्रे एकाच् इत्यस्य विशिष्टः अर्थः. अपरेषु सूत्रेषु एकाच् इत्युक्ते यत्किमपि शब्दरूपं यस्मिन् एकः एव स्वरः. अस्मिन् सूत्रे किन्तु एकाच् इत्युक्ते एकः स्वरः, तदतिरिच्य किमपि न भवेत्. यदा इ इन्द्र उ उत्तिष्ठ एषु स्थलेषु प्रकृतिभावः एव, न तु सामान्यम् अच् सन्धिकार्यम्. अतः उ उत्तिष्ठ इत्यस्मिन् सवर्णदीर्घसन्धिः न भवति. श्रूयते वा भगिनि?
आमां वदतु महोदय.
क्षम्यतां विवरणं
प्रयत्नं करोतु. सर्वं सुलभमेव. अत्र एकाच् निपातः इत्युक्तम् इत्युक्ते किम्?
अत्र एकाच् निपातः इत्युक्तम्
तादृशनिपातः यस्मिन् एकः एव स्वरः. अवगच्छति खलु?
एकः एव स्वरः. अवगतम्.
हा एकः एव स्वरः, एकः अच् इति एकाच् इत्युक्ते तद्विहाय हल्वर्णः अपि नास्ति अन्यः स्वरः अपि नास्ति तावदेव.
तद्विहाय न हल्वर्णः न वा अन्यः स्वरः भवेत्. आम् नाम एक एव वर्णः स्यात्, स च वर्णः स्वरः हि. अतः अस्मिन् सूत्रे एकाच् इत्यस्य विशिष्टः अर्थः. एकाच् इत्युक्ते एक एव स्वरः इति बुद्धम्. अपरेषु सूत्रेषु एकाच् इत्युक्ते यत्किमपि शब्दरूपं यस्मिन् एकः एव स्वरः. अस्मिन् सूत्रे किन्तु एकाच् इत्युक्ते एकः स्वरः. अपरेषु सूत्रेषु एकाच् इत्युक्ते
एक अपरेषु वदामि अपरेषु सूत्रेषु धातुः एकाच् भवतु, प्रत्ययः एकाच् भवतु इति किमपि आगच्छति. अस्तु उदाहरणत्वेन भू इति धातुः, तत्र एकाच् अस्ति धातुः. अपरेषु सूत्रेषु तादृशार्थः स्यात्, परन्तु अस्मिन् सूत्रे एकाच् इत्युक्ते एकः स्वरः, तदतिरिच्य किमपि नास्ति इति अवगन्तव्यः इति वदति.
पुनः एकवारं
नाम तत्र वस्तुतः तत् सूत्र किं सन्धिसम्बन्धितसूत्रं वार्ता नास्ति एव, केवलं वदति यत्र यद् अपरेषु सूत्रेषु एकाच् इत्युक्ते यत्किमपि शब्दरूपं यस्मिन् एकः स्वरः. यत्किमपि शब्दरूपम् इत्युक्ते धातुः इति स्वीकुर्मश्चेत् तत्र भू इति धातुः इति चिन्तयतु. अस्तु भू धातुः एकाच् एव, एकः एव अच् अस्ति भूधातुः, भूधातौ भूकारः इति. अपरेषु सूत्रेषु तादृश अर्थः अस्ति, धातुः प्रत्ययः अङ्गं यत्किमपि एकाच् इति अपरेषु सूत्रेषु, परन्तु अस्मिन् सूत्रे निपातः एकजानाङ् इत्यस्मिन् एकः एव स्वरः
स्वरः
तदतिरिच्य किमपि न भवेत् इति वार्ता अस्ति. अस्तु अग्रे पठतु महोदय.
भगिनि एकः प्रश्नः अस्ति, निपात् एका जनाङ् इति तस्मिन् सूत्रे आङ् वर्जयित्वा इति अस्ति, आङ् एकाच् निपात् नास्ति किल, किमर्थं?
वस्तुतः न आङ् इति एकाच् निपातः अस्ति भगिनि, प्रश्नः सम्यक् अस्ति. आङ् इत्यत्र तत्र अन्तिमनका किं ककगङ इति अस्ति खलु, सः अपगच्छति. कार्यं यदा भवति प्रक्रियायाम् अपगच्छति इति अस्ति पाणिनीयसूत्रानुगुणं. तस्य इत् संज्ञा इति भूत्वा सः वर्णः गच्छति इति कृत्वा अन्ततो गत्वा एकः एव वर्णः, एकः एव स्वरः तिष्ठति.
अस्तु,
अत्र न उक्तं तथा अस्ति किन्तु.
अस्तु अस्तु, परन्तु आङ् इति उपसर्गः अस्ति किल, निपात् इत्युक्ते अव्ययपदं, किमर्थम् आङ् उपसर्गः अत्र स्थापयित्वा?
हा, वस्तुतः निपातः इति एका संज्ञा अस्ति भगिनि. केवलं सारल्यार्थम् अत्र पुस्तके अपि उच्यते यत् अव्ययम् इति. एकदृष्ट्या उपसर्गः अपि अव्ययमेव. अव्ययम् इत्युक्ते किं, तत्र तस्य परिवर्तनमेव न भवति, रूपपरिवर्तनमेव न भवति इति खलु. लिङ्गवचनभेदेन न भवति, तादृश अर्थे तावदेव.
अस्तु अस्तु, धन्यवादः.
अस्तु,
भगिनी प्रश्नः अस्ति, यदा आङ् आगच्छति तत्र तु णकारस्य संज्ञा तु भवति एव, लोपः जातः, परन्तु तस्य प्रभावः तु अस्ति भवति एव तत्र.
सत्यं महोदय, परन्तु कार्यार्थं यद् सिद्धं भवति तदङ्गं तु केवलम् आ इति एव, एकाच् एव अस्ति खलु. हा, प्रभावः स्यात् इति वार्ता भिन्ना, परन्तु एकाच् एव भवति अन्ततो गत्वा.
परन्तु यदा तस्य प्रभावः अस्ति एव तत्र साक्षात् यथा इ इन्द्र उ उमेश तादृशी एकाच् नास्ति तत् आङ्ग्.
न, एकाच् अस्ति, प्रक्रियार्थं यत् सिद्धं भवति तदेकाच् एव. अस्तु, तत्र नकारस्य किमपि कार्यमस्ति भवन्तः जानीयुः खलु, क्रियापदस्य निर्माणसमये सार्वधातुकप्रकरणे इत्यादिषु जानीयुः तत्र नकारस्य कार्यमस्ति इति सत्यं, परन्तु यद् अवशिष्यते तद् एकाच्. अस्तु, हा, तर्हि अग्रे अजय महोदय. इ इन्द्र उ उत्तिष्ठ एतेषु स्थलेषु प्रकृतिभावः एव भवति इति वार्ता, यतोहि एकः एव स्वरः अवशिष्यते. अस्तु, हा, अग्रे पुष्पा भगिनी अग्रे पठतु कृपया.
अस्तु भगिनि, अधुना आ निपातः अस्ति चेत् का गतिः इति पश्येम. निपात एकाजनाङ् इत्यनेन आनिपातः प्रगृह्यप्संज्ञकः भवति आङ् विहाय. हा हा, अस्तु अस्तु, आङ् विहाय,
अग्रे पठतु.
आङ् विहाय आङ् इति चेत् प्रगृह्यसंज्ञकः न, अन्ये सर्वे एकाचः निपाताः अनेन सूत्रेण गृह्यन्ते, तर्हि आङ् कुत्र कुत्र भवति इति द्रष्टव्यम्. अस्तु, अत्र आ स्वरः आत् नास्ति, आत् निपातः नास्ति, तत् वदति न
आङ् वर्जयित्वा आ निपातः प्रग्रह्यसंज्ञकः भवति. तत्र उदाहरणानि परिशीलयतु भगिनि.
अस्तु, आङ् निपातस्य चत्वारः प्रयोगः. अस्तु अस्तु, अनन्त्यन्तगत्यर्थे, हा, प्रीवियस्
अनत्यन्तगत्यर्थे,
अनत्यन्त गत्यर्थे आयोगः उष्णः औष्णः किञ्चित् उष्णः अतीव उष्णः न अस्तु 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 आ द्वे आ उपसर्गः आ योगः गम् योगः लट् आगच्छति आ योगः इहि येहि ते तु धातूनां धातु अस्ति
विद्याभगिनी प्रश्न आसीत् आङ् इति तत्र पश्यतु आङ् इत्येव अस्ति निपातः तत्र अन्तिमः व्यञ्जनम् अपगच्छति अन्तिमं व्यञ्जनम् अस्तु अग्रे भगिनि
अभिविधिः आरम्भस्य सीमा आजन्म अव्ययं जन्मतः आरभ्य मर्यादा अन्तस्य सीमा इति यावत् पर्यन्तम् इत्यर्थः इति यावत् अध्ययनात् अण्टिल् द रीडिङ्ग् बिगिन्स् अध्ययनात् अस्तु 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 भगिनि तदेव मम प्रश्नः अस्ति तत् उत्तरम् आगच्छति अत्र आतु अतीव ऐ मीन् अनत्यन्तगत्यर्थे
एकनिमिष आङ्ग् आङ्ग् इत्यस्य चत्वारि उदाहरणानि तत्र दर्शितानि तावदेव तत्र अनाङ्ग् इति उक्तं खलु तत्र इत्युक्ते किम् आङ्ग् इत्यस्य प्रगृह्यसंज्ञा न भवति प्रगृह्यसंज्ञायाः अभावे यथा सामान्यं सन्धिः भवति इति प्रदर्शितम् आयोगः उष्णः औष्णः अथवा आयोगः इहि एहि तथा अस्तु अग्रे पठतु भगिनि एषु चतुर्षु स्थलेषु
एषु चतुर्षु स्थलेषु आ इत्यनेन सह सामान्य अच् सन्धिः भवति औष्णः एहि अध्ययनात् इति कृत्वा निपात एकाजनाङ् इत्यस्मिन् अनाङ् नाम आङ् इति आङ् अस्ति चेत् प्रकृतिभावो भावः न विद्यते एतान् चतुरः प्रयोगान् अतिरिच्य निपातस्य व्यवहारः भवति चेत् निपात एकाजनाङ् इत्यनेन प्रगृह्यसंज्ञा भवति अतः प्रकृतिभावः एव यथा आ एव मन्यते अहो तथा चिन्तयसि किम् आ एवं किलासीत् अहो तथा आसीत् बहु पूर्वं विद्यसन्धि बाधकं वृद्धिसन्धिबाधकं वृद्धिसन्धिबाधकं तत् लास्ट्
अहमेव किञ्चित् वदामि एषु चतुर्षु स्थलेषु यद् भवती पठितवती तत्र आङ् इति उपसर्गः अथवा आङ् इति निपातः अनत्यन्तगत्यर्थे इत्यादिषु अर्थे अस्ति खलु तत्र अच् सन्धिः भवति यतोहि आङ् इत्यस्य प्रगृह्यसंज्ञा नास्ति अतः एव औष्णः एहि अध्ययनात् इत्यादिकं निपात एकजानाङ् इति अनाङ् इति स्वीकृतम् अनाङ् इत्युक्ते न आङ् इत्यस्मिन् अर्थे तदर्थम् आङ् इत्यस्य प्रगृह्यसंज्ञा न भवति अपि च प्रकृतिभावः न भवति इति प्रदर्शितं प्रकृतिभावः कुत्र भवति इत्युक्ते पुनः आ एवं मन्यसे इत्यत्र यः आ इति अस्ति खलु तद् अनाङ् नास्ति तत् आङ् नास्ति तदर्थं तत्र प्रकृतिभावः तिष्ठति एव आ अपि च एवं तयोः मध्ये वृद्धिसन्धिः भवितुम् अर्हति खलु आयोगः ए ऐ इति भवितुम् अर्हति तद् न भवति प्रकृतिभावं प्रकृतिभावत्वेन एव तिष्ठति इति वार्ता अस्तु.
अकार अस्ति चेत् आ अस्ति चेत् अकार अस्ति चेत् आकार अस्ति चेत् चतुर्षु
उभयत्र आकारः एव चतुर्षु स्थलेषु आङ् इति अस्ति अत्र आ एवं मन्यसे तथा नास्ति तावदेव. अस्तु तर्हि इतः अग्रे सरेम. तर्हि सर्वान् सन्धीन् वयं परिशीलितवन्तः, अवशिष्टं किं किम् अस्ति इति पश्याम.
भगिनि कथं जानीमः आ केवलं एक आङ् नास्ति तत् आ?
तर्हि तत्र तु प्रक्रियां ज्ञात्वा एव जानीमः भगिनि, पदं कथं निष्पन्नम् इति दृष्ट्वा.
अस्तु
अस्तु. तत्र आजन्म इत्यत्र अस्तु, कीदृशं तत्र पूर्वं किं किम् अस्ति इति दृष्ट्वा एव जानीमः. अस्तु. अपि च अत्रापि वाक्यस्तरे अस्ति आ एवं मन्यसे इत्यत्र अर्थं दृष्ट्वा अपि स्पष्टः भवति खलु, स्पष्टं भवति अहो इत्यस्मिन् अर्थे अस्ति इति खलु. आजन्म आध्यायनात् इत्यस्मिन् अर्थे अन्यत् किमपि स्यात् इति ऊहामपि कर्तुं शक्नुमः. अस्तु तर्हि अग्रे सरेम. तर्हि इतः के के सन्ति विलम्बेन ये आगतवन्तः?
भगिनी सुमित्रा अस्मि.
सुमित्रा भगिन्याः नाम अस्ति, अभिनवमहोदयस्य नाम अपि अस्ति. अन्ये केपि सन्ति वा? अस्तु भगिनि. तर्हि सुमित्रा भगिनी, अभ्यासः इति अस्ति खलु पुस्तके? हा, तत् किञ्चित् कारयतु.
यदोदाहरणं परसन्धि नाम प्रथमम् अस्ति आत्मन्येव, आत्मनि युगः एव. भगिनी कदा पठामि?
केवलं सत्यं केवलं पदविच्छेदं करोतु, कः सन्धिः इति वदतु भगिनी, पर्याप्तं. सूत्रं जानाति चेत् वदतु.
आत्मनि युगः एव इति परसन्धिः अस्ति, इको एनचि इति उदायकसूत्रमस्ति. अनन्तरं निःश्रेयसकरा उभौ, निःश्रेयसकरौ योगः उभौ यान्तावान्तादेशः.
सत्यं. हा, अग्रे.
कालेनेह, कालेन योगः गुणसन्धिः.
आद्गुणः इति अस्ति सूत्रम्.
ब्रह्मैव, ब्रह्मः एव.
वृद्धिरेचि.
इमे अवस्थिताः, इमे योगः अवस्थिताः, पूर्वरूपसन्धिः.
समीचीनम्. एङ्गः पदान्तात् अति,
एङ्गः पदान्तात् अस्ति इत्यनेन पश्यैतां, पश्य योगः एतां, वृद्धिरातेच् वृद्धिः
वृद्धिरेचि.
क्षम्यतां, वृद्धिरेचि.
हा, वृद्धिरादैच् इति वृद्धिसंज्ञाविधायकं सूत्रमस्ति.
अस्तु भगिनि.
अग्रे अपि भगिनि.
सर्वाणीन्द्रियकर्माणि, सर्वाणि योगः इन्द्रियकर्माणि. सवर्णदीर्घ.
हा, समीचीनम्.
वेदविनाशिनं, वेदयोगः अविनाशिनं. सवर्णदीर्घः.
सत्यं. सवर्णे दीर्घः इति सूत्रमस्ति.
द्विधं तु योगः इदं, कुरुते अर्जुन, कुरुते योग, योगः अर्जुन, पूर्वरूपसन्धि,
हा पूर्वरूपसन्धिः एव,
इङ्गः
पदान्तात् अति
भूमाव सफलं, भूमौ योगः असफलम्,
असपत्नम्,
असपत्नम्, भूमौ योगः असपत्नम्, यान्तावन्तादि सूत्रं न स्मरामि,
यचो यवायावः इति,
आतिष्टोतिष्ठ, आतिष्ठ योगः उत्तिष्ठ, गुणसन्धिः, इत्यनुशुश्रुम, इति योगः अनुशुश्रुम,
यण्सन्धिः, सत्यम्, हा समीचीनमस्ति. तर्हि एतानि सर्वाणि
गीतासन्धिः कथं किं सूत्रं करोति भगिनि?
तर्हि इमानि उदाहरणानि किञ्चित् क्लिष्टकराणि इति मम भाति, गीतातः उद्धृतानि. तर्हि सन्धिपुस्तकं वा यत्किमपि सामान्यपुस्तकम् उद्घाट्य कृपया पदानि चित्वा तत्र सन्धि अभ्यासं कुर्वन्तु, तत्र अनेन महान् लाभः भवति अवश्यम्. हा समीचीनं भगिनि, अग्रे सरेम इतः. अभिनव महोदय, अग्रिम अभ्यासं कारयतु कृपया. अभिनव महोदय अस्ति किम्? अस्तु, अन्य कोऽपि अस्ति वा यः न पठितवान् अथवा पठितवती? बालसुब्रह्मण्य महोदय, तर्हि
सन्धिप्रक्रियां निर्देशतः न च योग अक्रियः चाक्रियः अकस्वर्णे दीर्घः
सवर्णदीर्घसन्धिः,
सवर्णदीर्घसन्धिः पर्याप्तं वा प्रक्रिया?
न न न, हा प्रक्रियां त्यजतु, वर्णविच्छेदं कृत्वा, पदविच्छेदं कृत्वा तद् मास्तु, वर्णक्रमः इत्यादिकं, केवलं कः सन्धिः इति वदति चेत् पर्याप्तम्. एतावत् पर्यन्तं सर्वे जानीयुः एव वर्णक्रमः कः.
हि असन्न्यस्तसङ्कल्पः, हि शसन्तसङ्कल्पः, यण्सन्धिः, इको यणचि, तस्य एव, तस्यैव वृद्धिसन्धिः, वृद्धिरेचि कर्मसु अनुषज्यते, कर्मसु अनुषज्यते, इकोयणचि यन्सन्धिः, तदा उच्यते, तदोच्यते, आद्गुणः गुणसन्धि, आत्मा आत्मनः, आत्मात्मनः सवर्णदीर्घसन्धि, अकसवर्णदीर्घः, तत्र एकाग्रं, तत्रैकाग्रं वृद्धिसन्धिः, वृद्धिरेचि, श्रीमद्भगवद्गीतासु उपनिषत्सु, श्रीमद्भगवद्गीतासु उपनिषत्सु इति सवर्णदीर्घसन्ति, अकस्वर्णदीर्घः, इह एकस्तम्, इहैकस्तम्, इह एकस्तम्, इहैकस्तं वृद्धिसन्धि, वृद्धिरेचि, ते अव्ययां, ते व्ययां पूर्वरूपसन्धि, एङः
एङः पदान्तादपि, हा समीचीनमस्ति. अग्रे राजेन्दर् महोदय.
आं भगिनि, अधो निर्दिष्टेषु पदेषु सन्धिच्छेदं कुरत. येनात्मेव आत्मना आत्मना प्रथमं तु येन आत्मा तत्र स्वर्णदीर्घसन्धिः अस्ति. तत् अनन्तरं मे एव आत्म एव वृद्धिसन्धिः अस्ति तत्र तत्र. तद् अनन्तरं एव आत्मना तत्र स्वर्णदीर्घसन्धिः आगच्छति पुनः. कुरुते अर्जुन कुरुते जुना कुर्तेर्जुन जुन अत्र तु पूर्वरूपसन्धिः अस्ति. कुर्ते अर्जुन अचिरेणादि गच्छति अचिरेण अत्र तु स्वर्णदीर्घसन्धिः अस्ति. अचिरेण अधिगच्छति स्वर्णदीर्घसन्धिः. द्रक्ष्यस्यात्मन्यथौ
द्रक्ष्यसि आत्मनि प्रथमं
अत्र तु यन् सन्धिः आगच्छति इको यञ्चि पूर्वं. तत् अनन्तरं स्वर्णदीर्घसन्धि
न न न चिन्तयतु. द्रक्ष्यसि आत्मनि
आत्मनि यथा क्षम्यतां भगिनि इको यञ्चि.
हा तर्हि पदानि कानि महोदय तत्र? द्रक्ष्यसि आत्मनि अथौ
द्रक्ष्यसि आत्मनि यथौ
अथौ
अथ आत्मनि अथ अथौ तत्र यन् सन्ति पुनः आगच्छति तत्र. पश्यन्त्यात्म मन्य अवस्थितं पश्यन्ति यन् सन्धि अत्र आगच्छति. यानि आत्मनि पुनः यन् सन्धि आगच्छति. आत्मनि अवस्थितं सिद्धाव
पुनः यण् सन्धि यण् सन्धि द्विवारं पश्यन्ति योगः आत्मनि पश्यन्ति आत्मनि पुनः आत्मनि योगः अवस्थितम् आत्मन्यवस्थितं
द्विवारं यण् सन्धि आगच्छति. सिद्धाव सिद्धाव अत्र तु एचयवयावः सन्धि आगच्छति.
पदानि कानि महोदय? द्वे पदे स्तः के ते?
सिद्धि अवसिद्धौ
न चिन्तयतु तत्र. सिद्धौ योगः असिद्धौ खलु?
सिद्धौ योगः सिद्धौ योगः अवसिद्धौ तत्र एचयवयावः सन्ति.
हा तर्हि अवसिद्धौ इति न वक्तव्यं यतोहि आव् इति आदेशः आगच्छति. सिद्धौ योगः असिद्धौ तत्र हा औ स्थाने आव् आगत्य असिद्धावसिद्धौ यान्तवान्तादेशसन्धिः खलु?
द्वाविमौ अत्र तु
द्वौ योगः इमौ
द्वौ योगः इमौ
द्वाविमौ
द्वाविमौ अत्र तु
यान्तवान्त आदेशसन्धिः
यान्तवान्त आदेशादेश द्वाविमौ चौषधि च योग औषधि चौषधि
औषधीः चौषधीः
औषधि अत्र कीदृशी सन्धिः आगच्छति अत्र भगिनि?
भवान् चिन्तयतु औ इति आगतम् औ वृद्धिसंज्ञकः खलु?
आम् आं भगिनि औषधिः परमात्मा इति उदाहृतः परमात्मा तत् प्रथमं तु यन् सन्धिः आगच्छति
एकनिमिष पदच्छेदं करोतु. परमात्मा योगः इति परमात्मेति गुणसन्धिः खलु,
गुण्गुण्सन्धिः आगच्छति. परमात्मे परमात्मेति उदात्तः अनन्तरं यन् सन्धिः आगच्छति. यन् सन्धिः आगच्छति यत् यथोत् बेना वृत्तौ यत् अत्र पूर्वं तु गुणसन्धिः आगच्छति.
पदविच्छेदं करोतु. यथा उल्बेन आवृतौ खलु,
यथा उद्बेन
आवृतो
आवृतौ, तत् प्रथमं तु यन् सन्धिः आगच्छति. यथा
महोदय, यथा योगः उल्बेन यथोल्बेन कीदृशसन्धिः?
गुणसन्धिः.
हा, गुणसन्धिः. तदनन्तरं
गुणसन्धिः, तथैव अहं चिन्तयामि, परन्तु यन् सन्धिः उक्तवान्. गुणसन्धिः आगच्छति, अनन्तरं सुवर्णदीर्घसन्धिः आगच्छति.
हा, उल्बेनावृतौ इति सवर्णदीर्घसन्धिः अस्ति. अस्तु, अग्रे पश्यन्तु, अन्तिममेकम् अभ्यासं कृत्वा समापयामः. पुस्तकस्य पाठस्य आदौ एका कथा अस्ति, कथां कृपया गृहपाठरूपेण कुर्वन्तु. अस्तु, अग्रिम अभ्यासं कृत्वा समापयामः स्वरसन्धिविषयं. सरला भगिनी, कृपया अग्रे.
अपारहार्ये अस्य सन्धि भवति.
भगिनी, चिन्तनीयः अस्ति, किञ्चित् चिन्तनीयः, कः सन्धिः इति. अपरिहार्ये अर्थे तत्र पदान्ते ये अस्ति खलु, एङ्गः पदान्तात् अति कार्यं करोति.
अस्तु,
हा, तर्हि कः सन्धिः? पूर्वरूपसन्धिः. अस्तु
अस्तु, अपरिहार्ये अर्थे अत्र पदान्ते.
भगिनी न श्रूयते, कृपया पार्श्वे आगत्य. हा, इदानीं सम्यक् अस्तु, अग्रे.
आत्मा एव आत्मैव वृद्धिसन्धि भवति मध्यरेखे.
भगिनी न श्रू पुनः न श्रूयते. हा, अधुना श्रूयते, अधुना वदतु.
आत्मा योग एव आत्मैव वृद्धि सन्धि वृद्धिरेचि सूत्रम्. उपविश्य योग आसने, उपविश्य आसने सवर्णदीर्घसन्धि, अकदीर्घ सवर्ण
अकः सवर्णे दीर्घः इति सूत्रम्.
अक सवर्णे दीर्घसूत्रम् अस्ति. ब्रह्म अपरं ब्रह्मापरं सवर्णदीर्घसन्धि, अक सवर्णदीर्घ सूत्रम्. मनषष्ठानि इन्द्रियाणि, पुनः षष्ठानि इन्द्रियाणि सवर्णदीर्घसन्धि भवति. यथा एधासि, यथै एधासि अत्र वृद्धिसन्धि भवति. एन् वे
प्लवेन एव
एन्धेन एव
अग्रे प्लवेन एव
प्लवेन एव प्लवेन एव भवति तत्र वृद्धिसन्धि भवति. त्वया उक्तं गुणसन्धि भवति. त्वयोक्तं राजस्य इष्टा राजसस्य
इष्टाः राजसस्येष्टाः
राजस्येष्टा गुणसन्धि आद्गुण. उभो अपि उभावपि यान्तवान्तसन्धि एचोयवाय सूत्रं भवति.
हा, एचोयवायवः इति सूत्रेण यान्तवान्तादेशसन्धिः. अस्तु, इत्यनेन स्वरसन्धिः इति पाठः समापितः. वयं बहुकालं
भगिनि मनः षष्ठानि इन्द्रियाणि तत्र कथमस्ति मनः षष्ठानि इन्द्रियाणि इन्द्रियाणि यकारः आयाति न
मनः षष्टानि योगः इन्द्रियाणि मनः षष्टानि इन्द्रियाणि सवर्णदीर्घसन्धिः अस्ति अस्तु समीचीनं तर्हि स्वरसन्धिः इति समापितः पाठस्य आदौ या कथा अस्ति कृपया कथां गृहपाठत्वेन समापयन्तु अग्रिमसप्ताहे हल् सन्धिः इति पाठः भविष्यति कोऽपि प्रश्नः वा अस्तु धन्यवादः
धन्यवादः
धन्यवादः